कलाभ्याम् चूडालङ्कृतशशिकलाभ्याम् निजतपःफलाभ्याम् भक्तेषु प्रकटितफलाभ्याम् भवतु मे शिवाभ्यामस्तोकत्रिभुवनशिवाभ्याम् हृदि पुनर्भवाभ्याम् आनन्दस्फुरदनुभवाभ्याम् नतिरियम् घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निप्रचलः पटो वा तन्तुर्वा परिहरति किं घोरशमनम् वृथा कण्ठक्षोभम् वहसि तरसा तर्कवचसा पदाम्भोजम् शम्भोर्भज परमसौख्यम् व्रज सुधी।